गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनूरघोरा पापकाशिनी तयानस्तनुवाशन्तमया गिरिशन्ताभिजाकषे यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् गुरुमाहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमनासत् अद्य वोचदति वक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रु सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेडहीमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्चदन्वनस्त्वमुभयोरात्मियोर्ज्याम् याश्च ते हस्त इषव पराता भगवो वपाम् अवतत्यदनुस्त्वगुम् सहस्राक्षशतेषु धे निषेर्य शल्यानाम् मुखा शिवो न सुमनाभव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निशम् गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिद्भुज नमस्ते अस्त्वायुधायाना तताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो यदिषु दिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्भकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः। सस्पिञ्जराय त्रिषेमते पधीनां पतये नमो नमो। बभ्रुषाय विव्याधिनेन्नानां पतये नमो नमो। हरिकेशायोपवेदिने पुष्टानां पतये नमो नमो। भवस्य हेत्यै जगतां पतये नमो नमो। रुद्राय ततावेने क्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय स्थपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम। उच्चैर्घोषाया क्रन्दयते पत्तीनां पतये नमो नमः। कृष्णवेताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिना व्याधिनीनां पतये नमो नमः। ककुभाय निषङ्गिणे सेनानां पतये नमो नमो। निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नमः। श्रिकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो। सिमद्भ्यो नक्तं जरद्भ्यः प्रकृन्तानां पतये नमो नम। उष्णेषिणे गिरिचराय कुलुञ्जानां पतये नमो नम। इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो। नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम। आसीनेभ्य शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम। स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम। सभाभ्यः सभापतिभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो। नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रथिभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतिभ्यश्च वो नमो नमः। सेनाभ्यः సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిద్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమః సేనాభ్య సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః తక్షభ్యోరథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ ప్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మేడుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆశవే చాచిరాయ చ నమ శీఘ్రియాయ చ శేభ్యాయ చ నమ ఓర్మ్యాయ చావస్వన్యాయ చ నమ శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమ పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమ సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమ ఉర్వర్యాయ చ కళ్యాయ చ నమ శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమ శ్రవాయ చ ప్రతిశ్రవాయ చ నమ ఆశుషేణాయ చాశురథాయ చ నమ శూరాయ చావభిందతే చ నమో వర్మిణే చ వరోధినే చ నమో విల్మినే చ కవచినే చ నమ శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధిమతే చ నమః तेष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च पट्याय च नमो वर्ष्याय च पश्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तीर्त्याय च कूर्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय चालाद्याय च नमः चष्प्याय च भेम्याय च नमः सिकत्याय च प्रवाह्याय च नमः गिरण्याय च प्रपथ्याय च नमः किगुंशिलाय च शयणाय च नमः कपर्दिने च बुलस्तये च नमो गोष्ट्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय जगह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोल्लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्याय च वर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागम् रुदगेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्वदे दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाघभेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय जे पिता तदस्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामान तनुवो रुद्ररीरिषः मानस्तोकेतनये माधायुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रवामितो वधेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्रमुत पूरुषग्ने क्षयद्वीरायसुम् नमस्मेते अस्तु रक्षाजनो अधिजदेव ब्रूह्यदाजनश्च शर्म यच्छद्विवरुहाः स्तुहि श्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्तिरा मघवद्यस्तनुष्वमीड्व स्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निदाय कृत्यम् वसा नमाचर पिनाकम् बिभ्रदागहे विगिरित विरोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोऽस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभूम्या तेषागुम् सहस्रयो जने वदन्वानि दन्मसे अस्मिन्महत्यर्नवेऽन्तरिक्षे भवा अधे नीलग्रीवाश्यति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्यति कण्ठादिवगम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृता ह्यभ्युदः ये तीर्थाणि प्रचरन्ति सृगाहन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुम् सहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्येषामन्नम् पातु वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् वोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజో యగుం శివాభిమరుషణః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణో సజోష సేవా వర్ధంతు వాంగిరః జుణ్ణైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శృతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మఓజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే త్వరోశ్చ మే శర్మ చ మే వర్మ చ మే గాని చ మే స్థాని చ మే పరోపుంసి చ మే శరీరాని చ మే జైష్ఠ్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మేమశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రథిమా చ మే వర్ష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే త్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మే నుకామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే ఊర్క్ష మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే చైత్రం చ మౌద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభు చ మే ప్రభు చ మే బహు చ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మేనం చ మే క్షుచ్చ మే వ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్రాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే क्षामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे विरोधश्च मौषधयश्च मे कृष्णपत्यं च मे कृष्णपत्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे ताभ्यश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे शृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्ष म आधवणीयश्च म आग्नेद्रं च मे अविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोतिषश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च मऋक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे साविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च वोर्ध्वा च यस्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुग्धामदानिशगुंसिषद्विश्वे देवासु तवाच पृथिवीमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्दुशोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छञ्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागुश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवे त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येह भवात् पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचस्सामानि जग्मिरे छन्दागुंसि जग्मिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केजो भयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु काहोरूपाद उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णौद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विरदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देहा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे हेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्चय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शन् चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् भुवेम प्रातर्जितम् भगमुग्रगुम् भुवेम वयम् पुत्रमदितेर्यो विधर्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा चिद्यम् भगम् भक्षेत्याः भगप्रणेतर्भगसत्यराधो भगे माम् धियमुदवदन्नः भगप्रणो जनयगोभिरश्वैर्भगप्रणुभिर्नुवन्तः स्याम उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् उतोदितामगवन् सूर्यस्य वयम् देवानागुम् सुमतौ स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्याम तम् त्वा भगः सर्व इज्जो हरिमि स नो भगपुर एता भवेह समध्वरायोषसो न मन्ददधिक्रावे वशुचये पदाय अर्वाजीनम् वसुमिदम् भगन्नो रथमिवाश्ववाजिन आवहन्तु अश्वावतीर्गोमतीर्न उचासो वीरवती सदमुच्छन्तु भद्राः नृतम् दुहाना विश्वत प्रपीना यूयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्तमता भागम् चिकीर्षते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सवितारथेन देवो जाति भुवना विपश्यन् अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् येषामीशे पशुपति पशूनाम् चतुष्पदामुत च द्विपदाम् निष्क्रीतोऽयम् यज्ञियम् भागमेतुराय स्पोष यजमानस्य सन्तो ॐ अय आदिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ नाप्यायस्य समेतु ते विश्वतत्सोभवृष्णियम् भवावाजस्य सङ्गधे अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरेमिमाय सलिला नितक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषे सहस्राक्षर परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपागुम् रेधागुम् सिजिन्वते श्योना पृथिवी बवानुक्षरा निवेशने यच्छानः शर्म सप्रदाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसे गामश्वम् पोष यत्नवासनो मृडा ते दृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्भुद्यस्वाग्ने प्रतिजागृह्येनमिष्टा पूर्ते सगुम् सृजेतामयम् च पुनः कृण्वग्रस्त्वा पितरम् युवानमन्वादागुंसि त्वयि तन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुम् सुरे विष्णोरराटमसि विष्णो पृष्टमसि विष्णो श्नप्त्रे स्तो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियधर्यो अर्हाद्युमद्विबाधि क्रतुमज्जनेषु यद्दीत यच्च वसर्त प्रजादतधस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यदाचार्याते अपि वस्तुतस्य तव प्रणीते तव शूरशर्मन्ना विभासन्ति कवयः सुयज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः सुरुचोपेन आवह सबुद्मिया उपमा अस्य विष्टा सदश्च योनिमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवशुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो देव्यानि मानुषा जनो गुह्यन्तर्विश्वानि विद्मना जिगादे इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् न यस्या अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवेरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्का
वामास्ते जुहुमस्तन्नो अस्तु भयग्रस्याम पदयोरयेनाम् इमं यमप्रस्तरमागि सेदाङ्गिरोभि पितृभिः संविदानः आत्मा मन्त्रा कविशस्तावहन् त्वेनाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनिश्चराय नमः ॐ कयानश्चित्र आभुवदूते सदा वृध सखा कया च ज्येष्ठया वृता आयङ्गौ प्रश्निरक्रमी ददनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निररुतिराबबन्धतामग्रेवास्वविचर्त्यम् इदम् ते तद्दृश्याम्यायुषो न मध्या तथा जीव पिदुमद्विप्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवतात् सहिताय राहवे नमः ॐ केतुम् गृह्णन्न केतवेपेशो मर्या अपेशसे समुषद्भिरजा यथाः ब्रह्मा देवानाम् पदवे कवीनाम् मृषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्राणागः स्वधेतिर्वनानागम् सोमपवित्रमत्येतिरे भन्न सचित्रचित्रम् चिदयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् गयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्वाम् ॐ अधिदेवता प्रत्यधिदेवतात् सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवे वचक्षुरातम् तद्विप्रासो विपन्यवो जाग्रुवागुम् सत्समिन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ सागेश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ